इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। आदौ मुख्य वार्ताः। झारखण्डीय विधानसभा निर्वाचनाय प्रथमचरणात्मिका सन्नद्धता सञ्जातास्ति। श्वः चरणेस्मिन् त्रिचत्वारिंशत् आसनेभ्यः मतदानं भविता। महाराष्ट्रविधानसभायाः नैर्वाचनिकप्रचारोपक्रमः उत्तुङ्गतां भजते। विभिन्नानां राजनीतिकदलानां वरिष्ठाः नेतारः मतदातॄन् समाकर्ष्टुं सर्वविधयत्ने रताः सन्ति। भारतेन विश्वबौद्धिकसम्पत्सङ्केतस्य 24-अधिक-2000तमवर्षस्य प्रख्यापितप्रतिवेदने पेटेंट, ट्रेडमार्क इत्यादि त्रिषु क्षेत्रेषु वैश्विक शीर्षेषु दशसु देशेषु स्थानम् अधिगतम्। अद्य आराष्ट्रं लोकसेवा प्रसारण दिवसः समाचार्यते। दिवसोऽयं स्वातन्त्र्यवर्षे दिल्लीस्थं आकाशवाणीभवनं प्रति महात्मा गान्धिनः एकवारमेव समागमनस्य स्मृतौ प्रतिवर्षं परिपाल्यते। अपि च राष्ट्रमण्डलक्रीडायाः कांस्यपदकविजेता ट्रीसा जॉली, गायत्री गोपीचन्दः च अद्य महिला युगलस्पर्धायां पराजयानन्तरं कुमामोटो मास्टर्स जापान बैडमिंटन प्रतिस्पर्धायाः बहिः गतवत्यौ। अथ वार्ताः विस्तरेण। झारखण्डीय विधानसभा निर्वाचनाय प्रथमचरणात्मिका सन्नद्धता सञ्जातास्ति। श्वः चरणेस्मिन् 43 आसनेभ्यः मतदानं भविता। द्वितीयचरणस्य मतदानम् अस्यैव मासस्य 20 38 आसनेभ्यः भविष्यति। मतगणना च नवम्बर मासस्य 23 दिनाङ्के भविष्यति। झारखण्डप्रदेशस्य मुख्यनिर्वाचनाधिकारिणा श्री के रविकुमारेण प्रोक्तं यत् विधानसभा निर्वाचनस्य घोषणानन्तरं राज्यस्य विभिन्नेभ्यः भागेभ्यः 970-कोटितोऽधिकरूप्यकमूल्यानाम् अवैधानिकसामग्र्यः धनानि च निग्रहितानि सन्ति। तावन् NDA इत्याख्यः राष्ट्रियलोकतान्त्रिकसङ्घः INDIA इति च दलसमूहः सम्प्रति तत्र स्वकीयं ध्यानं केन्द्रीकुरुतः स्तः यत्र द्वितीयचरणीयमतदानं सम्भावितमस्ति। धनबादस्य झरिया इत्याख्यक्षेत्रे भाषमाणेन भाजपेति दलस्य वरिष्ठनेत्रा गृहमन्त्रिणा अमितशाहेन उक्तं यत् जनाः भ्रष्टं हेमन्तसोरेन प्रशासनम् उत्पाट्य क्षिपन्तु इति।
आपका एक वोट झारखंड का भविष्य तय करने वाला वोट है। आपका एक वोट तय करेगा कि खुद को करोड़पति अरबोंपति बनाने वाला JMM चाहिए कि गरीब माताओं को लखपति दीदी बनाने वाली नरेंद्र मोदी की सरकार चाहिए। नरेंद्र मोदी।
महाराष्ट्र विधानसभायाः नैर्वाचनिक प्रचारोपक्रमः उत्तुङ्गतां भजते। विभिन्नानां राजनीतिकदलानां वरिष्ठाः नेतारः मतदातॄन् समाकर्ष्टुं सर्वविधयत्ने रताः सन्ति। भाजपेति दलस्य वरिष्ठनेता प्रधानमन्त्री च श्रीनरेन्द्रमोदी अद्य महाराष्ट्रस्य तीव्रविकासाय महायुतिप्रशासनस्य प्रशंसां कृतवान्। चन्द्रपुरजनपदस्य चिमूर इति क्षेत्रे एकां नैर्वाचनिकजनसभां सम्बोधयन् श्रीमोदिना भणितं यत् अयं महायुतिप्रशासनस्य सत्प्रयासानां परिणामः अस्ति यत् गतद्वाभ्यां वर्षाभ्यां महाराष्ट्रप्रदेशः सर्वाधिकतया प्रत्यक्षविदेशधननिवेशे सक्षमतमः अभवदिति। श्रीमोदिना भाजपेति दलस्य घोषणापत्रस्य प्रशंसां कुर्वता उक्तं यत् AI विश्वविद्यालयः, जलग्रिड इति परियोजनाः, आवासयोजनाः, नलिकाजलसम्पर्कजालः आद्यः महत्वाधायिन्यः घोषणाः महाराष्ट्रस्य उज्ज्वलभविष्याय लाभकारिण्यः सन्तीति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सौम्येव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन AIR चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। रक्षामन्त्रिणा राजनाथसिंहेन अद्य युद्ध सुरक्षयोः संभावित संकटेभ्यः प्रभावपूर्णरीत्या मुक्तये सानुकूलाः रक्षा रणनीतयः महत्वाधायिन्यः भविष्यन्तीति रेखाङ्कितम्। नवदिल्ल्यां दिल्ली रक्षा संवादः इत्याख्यस्य कार्यक्रमस्य उद्घाटनोद्बोधने श्रीसिंहेन सबलं निगदितं यत् सानुकूली रक्षेति एकं रणनीतिजन्यं विकल्पं नास्ति, परन्तु एका आवश्यकता वर्तते। तेन सबलं प्रतिपादितं यत् रक्षाव्यवस्था तादृशी भवेत् यया राष्ट्रं भविष्यत्कालिकानाम् आकस्मिकतया आगतानां सङ्कटानां सामुख्यं सरलतया करणे सक्षमं स्यादिति।
Contemporary wars are not being fought on the battlefields alone. We, in this age of digitization and information overload, are facing an unprecedented scale of psychological warfare. The government of India is determined to employ adaptive defense strategies to counter the menace of information warfare against national security.
अद्य आराष्ट्रं लोकसेवा प्रसारण दिवसः समाचर्यते। दिवसोऽयं स्वातन्त्र्यवर्षे दिल्लीस्थं आकाशवाणी भवनं प्रति महात्मा गांधिनः एकवारमेव समागमनस्य स्मृतौ प्रतिवर्षं परिपाल्यते। महात्मा गांधिना विस्थापितजनाः संबोधिताः आसन्, ये हि हरियाणायाः कुरुक्षेत्र इति स्थले अस्थायीरूपेण निवासिताः आसन्। सप्तसप्ततिवर्षपूर्वं दिवसोऽयं दीपावल्याः पवित्रावसरे आसीत्। तस्मिन् श्रीगान्धिवर्यः तैः विस्थापितैः सह साक्षात् मेलने समर्थः नाभवत्, अतः तेन आकाशवाण्याः माध्यमेन जनाः सम्बोधिताः। गान्धिनः सम्बोधनमिदं प्रथमम् अन्तिमञ्च आसीत्। गान्धिना स्वकीयोद्बोधनस्य शुभारम्भः मम भ्रातरो भगिन्यश्च इति उक्त्वा कृतः आसीत्। श्रीगांधीवर्येण आकाशवाणीति माध्यमं ईश्वरस्य चामत्कारिकी शक्तिः अस्तीति उक्तमासीत्। भारतेन विश्वबौद्धिकसम्पत्सङ्केतस्य 24,000-2,000 प्रख्यापितप्रतिवेदने पेटेंट, ट्रेडमार्क इत्यादि त्रिषु क्षेत्रेषु वैश्विकशीर्षेषु दशसु देशेषु स्थानम् अधिगतम्। एतस्मिन् प्रतिवेदने ज्ञायते यत् शीर्ष अर्थव्यवस्थासु पेटेंट, ट्रेडमार्क इत्येतौ समेत्य औद्योगिक प्रारूप अनुप्रयोगेषु उल्लेखनीया वृद्धिः जाता। भारतस्य बौद्धिक संपदा इति आईबी इत्यस्मिन् परिदृश्ये वैश्विक नेतृत्वरूपेण स्वकीयं स्थानं प्रबलतया स्थापयतीति। राष्ट्रस्य शुद्ध प्रत्यक्षकरसंग्रहः 1.14% वर्धितमस्ति। वित्तवर्षेस्मिन् साम्प्रतं यावत् 10,012,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000,00,000, केन्द्रीय कर संग्रह संघेन एतत् प्रतिपादितं यत् अस्य वर्षस्य 1 अप्रैलतः 10 नवम्बरान्तं यावत् प्रत्यावर्तिनः धनस्य समायोजनं प्राक् सकल प्रत्यक्षकर संग्रहः 0.2 अधिक 21% वरिवर्ध्य 15 लक्षकोटितोधिकः संजातः आसीत्। अस्मिन् कालावधौ 1,90,000+2 लक्षकोटिरूप्यकाणां कर प्रत्यावर्तनं कृतमस्ति, यद्धि गतवर्षस्य अस्यैव कालस्य करग्रहणस्य तुलनायां 53% अधिकमस्ति। केन्द्रीय प्राकृतिक इंधन मंत्री हरदीप सिंह पुरी उक्तवान् यत् जैव इंधन मिश्रणेन भारतम् आयातव्यये 1,90,000+ कोटिरूप्यकाणां संचयं कर्तुं शक्नोति, येन हि कृषिक्षेत्रं लाभान्वितं भविष्यति। बेंगलुरुनगरे 27वें ऊर्जा प्रौद्योगिकीय शिखर सम्मेलनस्य उद्घाटनं कुर्वन् असौ न्यगादीत् यत् भारतं जैव इंधन मिश्रणे विश्वस्तरे भारतं द्वितीय स्थानं लभते इति। संचार मंत्रालयः दौरभाषिक संवाद मध्ये विच्छिन्न संपर्कात्मकानि प्रकरणानि निरीक्षन् अस्ति। उपभोक्तृणां समस्यानां न्यूनीकरणाय मंत्रालयः प्रतिमासं सेवायाः गुणवत्ता इत्यस्योपरि निरीक्षणात्मकः दृष्टिपातः विदधाति। सूत्रानुसारि मंत्रालयः वर्षे वारचतुष्टयं परित्यज्य प्रतिमासं गुणवत्तायाः निरीक्षणं करिष्यति। राष्ट्रमंडल क्रीडायाः कांस्य पदक विजेता ट्रीसा जॉली गायत्री गोपीचंद च अद्य महिला युगल स्पर्धायां